सर्वेषां समासचिन्तनवर्गं प्रति स्वागतम्. अव्ययीभावसमासः इति विषयः पूर्वमेव आरब्धः. अव्ययीभावसमासस्य चिन्तनम् अनुवर्तते. आरम्भे अष्टाध्यायीसूत्रपाठः इति पुस्तकात् अव्ययीभावसमाससम्बद्धसूत्राणि एकवारं पठित्वा तदनन्तरम् अभ्यासं कुर्मः. अरुणा भगिनी, भवत्याः पार्श्वे अस्ति वा पुस्तकम्?
आं भगिनि,
एकवारं पठतु सूत्राणि.
अव्ययीभावः अव्ययं विभक्ति समीप समृद्धि दृष्टि अर्थाभाव आत्यय असंप्रति शब्द पश्चात् यथा अनुपूर्व्य योगपद्य तादृश संपत्ति साकल्यांत वचनेषु यथा आसदृश्ये यावद् अवधारणे सुप्रतिना मात्रार्थे अच्छा शालका संख्याः परिणः परिणा विभाषा अपपरि बहिरंग बहिरंचवः पञ्चम्या आं मर्यादाभिविध्ययोः रक्षणे नाभिप्रति अभिमुखे अनुर्यसमाय यस्य चायाम तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ठ्या वा संख्या वंशेन नदीभिश्च अन्यपदार्थे च संज्ञाया.
सम्यक् सम्यक् भगिनी, धन्यवादः. अत्र एकं सूत्रम् अस्ति. एकस्मिन् विषये किञ्चित् वदामि. यथा सादृश्ये इति एकं सूत्रम् अस्ति. यथा सादृश्ये, यद्यपि तत्र अकारः अस्ति, अकारस्य स्थाने अवग्रहचिह्नं स्थापयामः. तत्र एकं चिह्नम् अस्ति, तस्य नाम अवग्रहचिह्नम् इति वदामः. चिह्नम् इति वदनसमये अपि तत्र हकारस्य अनन्तरं नकारं लिखामः, किन्तु उच्चारणसमये चिह्नम् इति वक्तव्यमस्ति. अपि च अत्र यत्र अवग्रहचिह्नं दृश्यते तत्र अकारस्य उच्चारणं मा भवेत् इति विषयः. इत्युक्ते यथा सादृश्ये इति वदामः तत्र. अपि च सूत्राणि एकवारं वयं दृष्टवन्तः. सूत्राणां प्रसङ्गे किञ्चित् सारांशरूपेण पञ्चनिमेषपर्यन्तम् अहं किञ्चित् वदामि, तदनन्तरं वयं सर्वे मिलित्वा अभ्यासं कुर्मः. अत्र प्रथमं सूत्रमस्ति अव्ययीभावः. तत् सूत्रम् अधिकारसूत्रम् अपि च विशिष्टसमाससंज्ञासूत्रमस्ति. तदनन्तरं द्वितीयं सूत्रमस्ति अव्ययं विभक्तिसमीपसमृद्धि वृद्ध्यर्थाभाव, तत् दीर्घं सूत्रमस्ति. तत् सूत्रं विधायकसूत्रं, तेन अव्ययीभावसमासविधानं भवति. अस्मिन् सूत्रे षोडशपदानि उक्तानि. तेषु षोडशेषु अर्थेषु उक्तम् अव्ययपदं समर्थेन सुबन्तपदेन सह समासं कर्तुं शक्नोति इति तत् सूत्रं वदति. अनन्तरम् अव्ययीभावश्च इति एकं सूत्रमस्ति. तेन सूत्रेण अव्ययीभावसमासस्य अव्ययसंज्ञा भवति. किमर्थमित्युक्ते समस्तपदनिर्माणस्य अन्तिम सोपानमस्ति अत्र. अव्ययपदं भवति चेदेव अव्ययात् आप्सुपः इति सूत्रेण अव्ययपदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. तदर्थमेव अव्ययीभावश्च इति सूत्रेण अव्ययीभावसमासः अव्ययं भवति. अपि च अव्ययीभावश्च इति सूत्रं नपुंसकलिङ्गपदं भवति. तदर्थं तत्र कानिचन कार्याणि सन्ति. अपि च अव्ययीभावसमासे पूर्वपदम् एतेषु षोडशेषु अर्थेषु उक्तम् अव्ययपदं भवेत्, तदा उत्तरपदं कीदृशं पदं भवितुमर्हति इति प्रश्नः उदेति. उत्तरपदं कीदृशं पदं भवेत् इत्युक्ते उत्तरपदम् अनदन्तमस्ति चेत् तत्र विशिष्टसूत्राणां प्रसक्तिः नास्ति. अनदन्तपदम् इत्युक्ते हरि इति पदम् अनदन्तपदं. तदर्थम् अधिहरि इति पदं समस्तपदं निर्माणं कृत्वा वयम् अवगतवन्तः. उत्तरपदम् अनदन्तमस्ति चेत् सर्वासु विभक्तिषु एकमेव रूपं सिद्ध्यति. अपि च उत्तरपदम् अजन्तपदमस्ति चेत् तदा अजन्तपदम् इत्युक्ते दीर्घ आकारान्तं वा भवतु, दीर्घ ईकारान्तं वा भवतु, उकारान्तं वा भवतु, तदा ह्रस्वोनपुंसके प्रातिपदिकस्य इति सूत्रेण तस्य उत्तरपदस्य प्रातिपदिकस्य ह्रस्वत्वं भवति इति वयं दृष्टवन्तः. तदर्थम् एकम् उदाहरणं परिशीलितवन्तः. अधिगोपम्, अधिशालम् इत्यादीनि पदानि तेषु ह्रस्वोनपुंसके प्रातिपदिकस्य इति सूत्रेण ह्रस्वत्वं भवति. अपि च उत्तरपदम् अदन्तं भवति. अदन्तं भवति चेत् तत्र नाव्ययीभावादतोऽन्त्वपञ्चम्याः इति सूत्रेण अमादेशः भवति पञ्चमीविभक्तिं विहाय. अनन्तरं तृतीया सप्तम्योर्बहुलम् इति सूत्रेण अम् आदेशः विकल्पेन भवति इति कृत्वा, इत्युक्ते यस्मिन् पक्षे अम्भावः भवति तदा एकं रूपम्, अम्भावस्य अभावे यत्र अम्भावः न भवति तदा अन्यत् रूपं सिद्ध्यति. तदा तादृशरीत्या एव वयम् अधिगोपम् इति तृतीयाविभक्त्यां तृतीयासप्तम्योर्बहुलम् इति सूत्रेण अधिगोपम् अम्भावस्य पक्षे अम्भावः न भवति चेत् अधिगोपेन इति रूपं वयं साधितवन्तः. अपि च सप्तमीविभक्त्याम् अधिगोपम् अम्भावस्य पक्षे अम्भावः नास्ति चेत् अधिगोपे इति रूपं सिद्ध्यति. एतत् सर्वम् उत्तरपदम् अजन्तमस्ति चेत्, अदन्तमस्ति चेत् ईदृशानि कार्याणि भवन्ति. किन्तु उत्तरपदं हलन्तमस्ति चेत् किं भवति इति प्रश्नः उदेति. उत्तरपदं हलन्तमस्ति चेत् समासान्तप्रत्ययानां विधानं भवति. किमर्थमित्युक्ते समासान्तप्रत्ययस्य योजनेन गते सप्ताहे एव वयं चर्चितवन्तः, परिशीलितवन्तः. समासान्तप्रत्ययस्य विधानेन तत्र हलन्तपदम् अन्ततो गत्वा विशिष्टसूत्राणां प्रभावेण अदन्तं भवति. यदा अदन्तं भवति तदा नाव्ययीभावादतोऽन्त्वपञ्चम्याः अपि च तृतीयसप्तम्योर्बहुलम् इत्याभ्यां सूत्राभ्यां प्रसक्तिः अस्ति. अपि च विकल्पेन भिन्नभिन्नरूपाणि वयं दृष्टवन्तः. एतावता समासान्तप्रत्ययानां विधानं भवति उत्तरपदं हलन्तमस्ति चेत्. तत्र पूर्वमेव वयं समासान्तप्रत्ययानां प्रसङ्गे किञ्चित् वयं दृष्टवन्तः. तत्र पञ्चसूत्राणि वयं पठितवन्तः. अनश्च नपुंसकादन्यतरस्यां नदीपौर्णमास्याग्रहायणीभ्यः झयः अव्ययीभावे शरत्प्रभृतिभ्यः इति पञ्चसूत्राणि सन्ति. पञ्चभिः सूत्रैः समासान्तप्रत्ययानां विधानं भवति उत्तरपदं हलन्तमस्ति चेत्. हलन्तपदेषु अपि इतोपि स्पष्टतया अनन्तपदम् उत्तरपदं हलन्तम् अपि च अनन्तम् अन्ते यस्य सः अनन्त अनन्तपदमस्ति चेत् अनश्च इति एकं सूत्रमस्ति. उत्तरपदम् अनन्तपदं भवेत् पुंलिङ्गं वा स्त्रीलिङ्गपदं वा भवेत् तदानीम् एव तच् इति समासान्तप्रत्ययः नित्यरूपेण अनश्च इति सूत्रेण भवति. उत्तरपदम् अनन्तपदं किन्तु नपुंसकलिङ्गपदम् अस्ति चेत् नपुंसकात् अन्यतरस्याम् इति सूत्रेण विकल्पेन तच् नाम्ना समासान्तप्रत्ययः विहितः भवति. इत्युक्ते उत्तरपदम् अनन्तपदं भवेत् इति अनन्तपदं पुंलिङ्गं स्त्रीलिङ्गं भवति चेत् एकं सूत्रं, नपुंसकलिङ्गं पदम् उत्तरपदम् अनन्तपदम् अस्ति चेत् अन्येन सूत्रेण, इत्युक्ते नपुंसकादन्यतरस्याम् इति सूत्रेण समासान्तप्रत्ययविधानं भवति. अपि च अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रं वयं दृष्टवन्तः. नाम्ना एकः गणः अस्ति, तस्मिन् गणे यानि पदानि सन्ति तानि तेषु पदेषु अन्यतमं पदम् उत्तरपदं भवति चेत् अव्ययीभावे शरत्प्रभृतिभ्यः इति सूत्रेण कार्यं भवति. तस्मिन् प्रसङ्गे अग्रे वयं पठिष्यामः. अत्र अनश्च इति सूत्रेण टच् इति समासान्तप्रत्ययस्य विधानं भवति इति वयं गते सप्ताहे एव वयं दृष्टवन्तः. तत्र टच् इत्यस्मिन् तकारचकारयोः अनुबन्धलोपानन्तरं चुटू हलन्त्यम् इत्याभ्यां सूत्राभ्यां तत्र चकारटकारयोः लोपानन्तरम् अकारः एव अवशिष्यते. ठच् इति प्रत्ययः तद्धितप्रत्ययः, किमर्थं चेत् तत्र समासान्तप्रत्ययविधानं तद्धित अधिकारे भवति इति कृत्वा टच् प्रत्ययः तद्धितप्रत्ययः. तदर्थं तत्र एकवारम् अनस्य इति सूत्रेण टच् विधीयते चेत् एकं विशिष्टं सूत्रं नस्तद्धिते इति सूत्रेण तत्र किञ्चित् विशिष्टं कार्यं भवति. तत् किमित्युक्ते नस्तद्धिते इति सूत्रेण तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य शब्दस्वरूपस्य टीसंज्ञकभागस्य लोपः भवति इति वयं दृष्टवन्तः. टीसंज्ञकभागस्य लोपः भवति चेत् इत्युक्ते अध्यात्मम् इति पदं स्वीकृत्य वयं परिशीलितवन्तः, तत्र अन् इति भागः टी भागः भवति तस्मिन् पदे, तत्र तस्य भागस्य लोपं कृत्वा टच् इत्यस्मात् अकारः अवशिष्यते खलु, तत्र सः तस्य अकारस्य योजनं कृत्वा परिशीलयामश्चेत् तत्र पदम् अदन्तं पदं सिद्ध्यति. तदा नाव्ययीभावादतोऽन्त्वपञ्चम्याः तृतीयासप्तम्योर्बहुलम् इत्याभ्यां सूत्राभ्यां कानिचन कार्याणि भवन्ति, अपि च विकल्पेन भिन्नरूपाणि अपि साधयितुं शक्नुमः. नस्तद्धिते इति सूत्रस्य प्रसङ्गे वयम् अन्यानि त्रीणि सूत्राणि परिशीलितवन्तः. सुडनपुंसकस्य तेन सूत्रेण सर्वनामस्थानसंज्ञकप्रत्ययाः के, सर्वनामस्थानसंज्ञा इत्युक्ते का, अपि च यचिभम् इति एकं सूत्रं वयं परिशीलितवन्तः. यचिभम् इति सूत्रेण भसंज्ञा इत्यस्य अवगमनं जातम्, अपि च अचोन्त्यादि टी इति सूत्रं वयं पठितवन्तः. तेन टी संज्ञा इत्युक्ते किं तस्मिन् विषये वयम् अवगतवन्तः. एतावता अन्ततो गत्वा नस्तधिते इति सूत्रेण तद्धितप्रत्यये परे टीसंज्ञकभागस्य लोपः भवति. तत्र कानिचन निमित्तानि दत्तानि, यदा निमित्तानि पूरितानि भवन्ति तदा टीसंज्ञायाः लोपं कृत्वा अदन्तपदं वयं साधितवन्तः. इत्युक्ते गते सप्ताहे एतत् सर्वं वयं पठितवन्तः. अद्य वयं किं कुर्मः इत्युक्ते अस्माकं करपत्रे कानिचन पदानि भगिनी तत्र स्थापितवती, तत्र अधिवृक्षम्, अधिशालम्, अधिनौकम्, अध्याकाशम्, अधिरमम् इत्यादीनि पदानि तत्र करपत्रे स्थापितवती भगिनी. तत्र लौकिकविग्रहवाक्यं किम्, अलौकिकविग्रहवाक्यं किम् आहत्य समस्तपदस्य निष्पादन अवसरे कानि कानि सोपानानि सन्ति, एतत् सर्वं वयम् अद्य किञ्चित् अभ्यासं कुर्मः तस्मिन् प्रसङ्गे. तदर्थम् अहम् एकम् एकं पदं वदामि, भवन्तः सर्वे किञ्चित् तस्य पदस्य निर्माणावसरे कानि कानि सोपानानि सन्ति तस्मिन् विषये किञ्चित् परिशीलयन्तु. तदेव अस्माकं कार्यम्. अत्र करपत्रे प्रथमं पदम् अस्ति अधिवृक्षम्. अधिवृक्षम् इति पदस्य निर्माणं कथं भवति इति चिन्तनीयम् अधुना. शर्मिला भगिनी, भवती आरम्भं करोतु.
अधिवृक्षं वृक्षं वृक्ष इति वृक्षम् इति अत्र वृक्षयोगः नि योगः अधि इति अलौकिकविग्रहवाक्यं भवति. प्राक्कणारात् समासः इत्यनेन सम्पूर्ण शब्दसमूहस्य समाससंज्ञा भवति. अव्ययीभावः इत्यनेन समस्तपदस्य अव्ययीसंज्ञा अपि भवति. दीर्घं सूत्रम् अव्ययं विभक्ति समीप समृद्धि व्यर्थि अर्थाभाव अत्यय असम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा आनुपूर्व्य योगपद्य सादृशसम्पत्ति साकल्य अन्तवचनेषु इति सूत्रेण अधि इति विभक्ति विभक्त्यर्थे विभक्त्यार्थे अव्ययं समर्थेन वृक्षम् इति शब्द सुबन्तेन समस्यते. एतेन सूत्रेण अव्ययीभावसमस्य समासः विधीयते. वृक्षयोगः नियोगः अधि समाससंज्ञा भवति कृतधितसमासश्च इति सूत्रेण सम्पूर्णशब्दसमूहस्य. अत्र सुप् सुपो धातुप्रातिपदिकयोः इति सूत्रेण नि इति सुप्रत्यय लोपः भवति. अत्र पुनः अधि इति पदम् अस्ति वा इति चिन्तनसमये अधि अपि सुबन्त अस्ति एव. तत्र पूर्वं सुप्रत्ययः आसीत् परन्तु अव्ययात् आप्सुपः इत्यनेन सुप्रत्ययस्य लोपः जातः. परन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण पदम् इति लक्षणं तत्र तिष्ठति. अतः वृक्षं योगः अधि सुप्तिङन्तं पदम् इत्यनेन पदसंज्ञा भवति. वृक्षयोगः अधि अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण अधि अव्ययम् अस्ति. दीर्घसूत्रे अव्ययम् इति शब्द प्रथमाविभक्तौ अस्ति अतः तस्य पूर्वनिपातः भवति. अधि वृक्षम् इति भवति. तदनन्तरम् अव्ययीभावश्च इत्यनेन समस्तशब्दस्य अव्ययसंज्ञा भवति. अधिवृक्षम् इति अधिवृक्ष इति अव्ययसंज्ञा भवति. तदनन्तरं ह्रस्वोनपुंसके प्रातिपदिकस्य इत्यनेन ह्रस्वं भवति परन्तु परिवर्तनं नास्ति.
उत्तमम्. इत्युक्ते अव्ययीभावस्य सूत्रेण अव्ययीभावसमासः नपुंसकलिङ्गं भवति इति कृत्वा ह्रस्वोनपुंसके प्रातिपदिकस्य इत्यस्य कार्यं भवति किन्तु परिवर्तनं न दृश्यते. वदतु.
तदनन्तरम् अधिवृक्षयोगः सु तत्र प्रातिपदिकम् अधिवृक्षमिति प्रातिपदिकं भवति. सुप् प्रत्ययस्य योजनं भवति. सुओजस् अमोक्षस् ताभ्यां भिस्मीभ्यां भस् नसीभ्यां भस् ये ओस् ओत्सुप् इति सूत्रेण अधिवृक्षयोगः सु अत्र अव्ययात् आप्सुपः इत्यनेन पुनः सुप्रत्ययस्य लोपः भवति.
अत्र भगिनि अत्र अत्र किञ्चित् स्पष्टतया अवगन्तव्यम्. अत्र एकवारं तस्य प्रातिपदिकसंज्ञा भवति चेत् स्वौजस् अमौट् इति दीर्घसूत्रेण सुप्रत्ययस्य योजनं भवति किन्तु अन्ततो गत्वा अत्र पदम् अदन्तमस्ति इति कृत्वा अव्ययात् आप्सुपः इति सूत्रेण यत् कार्यं भवति स्म तत् कार्यं न भवति. इत्युक्ते तस्मिन् स्थाने नाव्ययीभावादतोऽन्त्वपञ्चम्याः इति सूत्रस्य कार्यं भवति अदन्तमस्ति इति कृत्वा. अदन्तं नास्ति चेत् अव्ययात् आप्सुपः इत्यनेन कार्यं भवितुम् अर्हति. वदतु.
अव्ययात् आप्सुप इत्यनेन सुप् लुक् भवितुम् अर्हति परन्तु अदन्त अस्ति इत्यनेन अतः सूत्रं प्रबाध्य न व्ययीभावात् अतो अत पञ्चम्या इति सूत्रेण तस्य लुक् न भवति परन्तु अम् आदेशः भवति. अतः अधिकोपयोग अधिवृक्षयोगः अम् अत्र अमिपूर्व इत्यनेन सवर्णदीर्घसन्धिप्रभाद्य अधिकोपम् अधिवृक्षम् इति भवति. पुनः अत्र तृतीया सप्तम्योर्बहुलम् इति सूत्रेण अदन्त अस्ति अतः तृतीया विभक्ति च सप्तम्या विभक्ति विकल्पेन अमादेश भवति अतः अधिवृक्षात् अधिवृक्षम् अधिवृक्षे अधिवृक्षम् इति रूपाणि भवति
अत्र पञ्चमी विभक्त्यां किं भवति
च पञ्चमी विभक्त्यां न भवति अतः अधिवृक्षात् अधिवृक्षे अधिवृक्षेण
अत्र एकवारं तृतीया विभक्ते विभक्त्यां रूपाणि वदतु तृतीया विभक्त्याम्
अधिवृक्षेण अधिवृक्षम् अधिवृक्षात्
तत्र णत्वमपि भवति णत्वकार्यमपि भवति अधिवृक्षेण इति भवति अट्कुप्वाङ् नुं व्यवायेपि इति सूत्रेण णत्वकार्यं भवति रषाभ्यां नोणः अट्कुप्वाङ् नुं व्यवायेपि इति सूत्र इत्याभ्यां सूत्राभ्यां तत्र णत्वं भवति तेन अधिवृक्षेण इति रूपम् इत्युक्ते अम्भावस्य अभावे अधिवृक्षेण अम्भावः भवति चेत्
अधिवृक्षमेव
अतिवृक्षम् अपि च अत्र पञ्चमी विभक्त्यां किं भवति
अत्र अमादेशः न भवति अतः अधिवृक्षात् इति रूपं भवति
उत्तमम् अत्र योजनसमये वयं विशिष्टं सूत्रम् एकं सूत्रं पठितवन्तः टानसि नसाम् इनात् स्याः इति तत् सूत्रं किं वदति
टानसि नस् च प्रत्ययानां स्थाने क्रमेण इन् आतस्य इत्येतेः आदेशाः भवन्ति अतः अदन्तात् आत् इति आदेशः भवति अदन्तात् पञ्चमी विभक्तौ आत् इति आदेशः भवति
अत्र नसि इति स्थाने आत् आदेशः भवति साधु एव उत्तमं भगिनि समीचीनतया उक्तवती सुमन् भगिनि भवती करोतु
अग्रिम श्रूयते किं भगिनि
श्रूयते वदतु
अग्रिम कः शब्दः
शालायाम् इति शालायाम्
अस्तु इदानीं तु शालायाम् अस्ति चेत् अलौकिकविग्रहवाक्यं शाला योग नि योग अधि भवति प्राक्कदरात् समासः सूत्रेण समासः भवति अव्ययीभावः इत्यनेन समासः अव्ययीभाव संज्ञा प्राप्नोति अनन्तरं दीर्घसूत्रम् अव्ययं विभक्ति समीप समृद्धिः व्यवृद्धिः अर्थभाव अत्यय असम्प्रतिः क्षम्यताम् असम्प्रति शब्दप्रादुर्भाव पश्चात् यथा आनुपूर्व्य यौग्यपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु इति सूत्रेण समास विधीयते तत्र अधि इति अव्ययम् आयाति इदानीं शाला योगनि योग अधि तत्र कृत्तदितसमासश्च सूत्रेण समासस्य प्रातिपदिकसंज्ञा भवति अनन्तरं सुपो धातु प्रातिपदिकयोः सूत्रेण तत्र सुप् प्रत्यय लुक् भवति शाला योग अधि एव तिष्ठति इदानीं तु यद्यपि सुप्रत्ययस्य लोपः भवति तत् प्रथमं तु आयाति अतः इदानीं प्रत्ययलोपः प्रत्ययलक्षणं सूत्रेण तस्य पदसंज्ञा अपि भवति अस्तु इदानीं तु क्षम्यताम् अव्ययात् सुपः अव्ययात् परस्य सुप् प्रत्ययानां लुक् करोति, किन्तु इदानीं तु लुक् भवति खलु
इत्युक्ते अत्र अधि इति पदस्य प्रसङ्गे किं ज्ञातव्यम् इत्युक्ते अधि इति पदम् अव्ययपदमस्ति. अव्ययपदं कथं भवति इत्युक्ते पूर्वमेव अधिशब्दात् शब्दस्य अनन्तरं यः सुप्रत्ययः अस्ति तस्य लोपः अव्ययात् आप्सुपः इति सूत्रेण पूर्वमेव अभवत् इति कृत्वा अधि इति पदम् अव्ययपदम् अपि च सुबन्तपदम् अपि
अधि इत्यस्य सुप्रत्ययलोपः भवति, किन्तु तत् पदमेव तिष्ठति यतः प्रत्ययलोपः प्रत्ययलोप प्रत्ययरक्षणम् सूत्रं वदति सुप्रत्यय आगतवान् चेत् तत् पदम् एव भवति लुक् भवति चेत् अपि. अस्तु, इदानीं शाला योग अधि अस्ति. इदानीं तु कस्य पदस्य प्रथमनिर्दिष्टं भवति इति द्रष्टव्यं. प्रथमनिर्दिष्टं समास उपसर्जनं सूत्रेण वयं जानीमः विधि समासविधि सूत्रे यत् पदं प्रथमविभक्त्याम् अस्ति तत्तु उपसर्जनसंज्ञा प्राप्नोति. अत्र अव्ययम् अस्ति प्रथमाविभक्त्याम्, अतः अधि इति उपसर्जन संज्ञा प्राप्नोति. अनन्तरम् उपसर्जनं पूर्वं सूत्रेण यत् पदम् उपसर्जनसंज्ञा संज्ञकं पदम् अस्ति तदेव पूर्वनिपात भवति. इदानीं तु अधिशाला भवति. अधिशाला इदानीम् अव्ययीभावश्च सूत्रेण अव्ययी भावसमास अव्ययम् अव्ययम् इति भवति. अनन्तरं पुनः अव्ययीभावश्च सूत्रेण समासस्य लिङ्गं नपुंसकलिङ्गं भवति. इदानीम् अधिशाला अस्ति. अधिशाला इदानीं ह्रस्वनुपुंसके प्रातिपदिकस्य इति सूत्रेण इदानीं तु अव्ययीभावसमासः अपि अस्ति अपि च नपुंसकलिङ्गम् अपि अस्ति, अतः एतस्य सूत्रस्य प्रसक्तिः अस्ति. अधिशाला अधिशाल भवति. अन्ते दीर्घ स्वरः अस्ति चेत् तस्य स्थाने ह्रस्वस्वरः आदेशः भवति, अतः इदानीम् अधिशाल भवति. अनन्तरं दीर्घसूत्रं स्वौ जस् औट् सूत्रेण तत्र सुप्रत्यय आयाति, अधिशाल योग सु भवति. इदानीं अव्ययात् क्षम्यताम् अव्ययात् आप् सुपः तत्र तत् सूत्रं कार्यं करोति चेत् सूत्रस्य लोपः भवति, किन्तु अत्र तत् सूत्रं न कार्यं करोति. नाव्ययीभाव न अव्ययीभावात् भावात् तो मत्वं पञ्चम्याः इति सूत्रेण सुप्रत्ययस्य लुक् न भवति, किन्तु अम् आदेश भवति पञ्चमी विभक्त्यां विहाय. इदानीं तु अधिशाला क्षम्यताम् अधिशालयोग अम् अस्ति अमिपूर्वसूत्रं कार्यं करोति अधिशालं भवति अनन्तरं एतत् एव सिद्धरूपम् अस्ति किन्तु तृतीया सप्तमी विभक्तयोः तृतीय रूपाणि सप्तमी रूपाणि विकल्पेन आगन्तुं शक्नोति
अत्र सूत्रं अत्र अधिशाला इति अदन्तमस्ति इति कृत्वा नाव्ययी भावादतोऽन्त्वपञ्चम्याः अपञ्चम्याः इति तत्र पञ्चमी विभक्तिं विहाय इति दत्तमस्ति अपि च वयं एतत् सर्वम् अस्माभिः ज्ञातमेव तत्र रूपाणि एकवारं वदतु भगिनि
अस्तु वदामि भगिनि पुनः एकवारं सूत्रम् उच्चारयतु ऐ आल्वेस् स्टम्बल् ओवर् इट्
न अव्ययी भावा दतोऽन्त्वपञ्चम्याः तत्रापि अवग्रहचिह्नं दृश्यते
पश्यामि न अव्ययी नाव्ययी भावा तत्तो भावा दतो
तकारः भगिनि तत्र न अव्ययी भावा दतोऽन्त्व पञ्चम्याः इत्युक्ते अतः अं तु अपञ्चम्याः अत्र पदविच्छेदं कुर्मः चेत्
न अव्ययी भावात् अतः अम्
अपञ्चम्याः एकवारं वदतु
न अव्ययी न अव्ययी भावात् अतः अम् तु अपञ्चम्याः
धन्यवादः अत्र रूपाणि एकवारं स्मारयतु
अस्तु प्रथमा विभक्ति भवति अधिशालम् अस्तु त्रीणि रूपाणि वदामि एकवचनं द्विवचनं बहुवचनम् अधिशालम् अधिशालम् अधिशालं द्वितीया विभक्त्याम् अपि अधिशालम् अधिशालम् अधिशालं तृतीया विभक्त्याम् अधिशालं नो चेत् अधिशालेन अधिशालं नो चेत् अधिशालाभ्यां बहुवचने अधिशालं नो चेत् अधिशालैः चतुर्थी विभक्त्यम् अधिशालम् अधिशालम् अधिशालं पञ्चमी विभक्त्यम् अधिशालात् अधिशालाभ्याम् अधिशालेभ्यः षष्ठी विभक्त्यम् अधिशालम् अधिशालम् अधिशालं सप्तमी विभक्त्याम् अधिशालम् अथवा अधिशाले अधिशालं नो चेत् अधिशालयोः अधिशा बहुवचने अधिशालं नो चेत् अधिशालेषु सम्बोधने अधि हे अधिशालम् अधिशाल भवति वा अधिशालं भवति वा
अधिशालम्
किन्तु पुस्तकम् अस्ति चेत् और् मित्रम् अस्ति चेत् हे मित्र भवति खलु
किन्तु अत्र रूपाणि भगिनी सम्बोधने अधिशालं तत्र अधिशालं रूपमेव लिखितवती इत्युक्ते किम् अवगन्तव्यम् इत्युक्ते केवलं तृतीयाविभक्त्यां सप्तमी विभक्त्यां पञ्चमी विभक्त्याम् एव भिन्नरूपाणि भवन्ति अन्यासु विभक्तिषु
अस्तु सम्बोधने अपि अधिशालम् अधिशालम् अधिशालम्
साधु साधु भगिनि धन्यवादः उत्तमम्
धन्यवादः भगिनि उत्तम अभ्यासः आसीत्
उत्तमं तृतीयं पदमस्ति अधिनौकम् इति पदमस्ति अरविन्द महोदय भवान् आरम्भं करोतु अधिनौकम् अथवा नौकायां वदतु.
अधिनौका अधिनौ यत्र अलौकिकविग्रहवाक्यं भवति नौका योगः ङी योगः अधि अत्र प्राक्कडारसमासः इति सूत्रस्य समाससंज्ञा भवति अव्ययीभावः इति सूत्रेण समस्तपदस्य अव्ययीभावसंज्ञा समाससंज्ञा अपि भवति अत्र अधि योग अधिशब्दस्य प्रथमतया अव्ययीभावात् सुप् लुप् भवति कृत्वा तत्र अति एव दृश्यते तदनन्तरं गोपा योगाङ्गी अधि योग अधि दृश्यते.
अधिनौकम् इत्यस्मिन् प्रसङ्गे वयं चिन्तनं कुर्वन्तः स्मः, तदर्थं नौका इति पदं स्वीकृत्य वदतु.
नौका योगाङ्गी योगः अधि तदनन्तरम् अव्ययं विभक्तिसमीप संवृद्धि वृद्धि अर्थाभावत्य सम्प्रति शब्दप्रादुर्भाव पश्चात् यदा अनुपूर्व्य योगवद्य सादृश्य सम्पत्तिसाकल्य अन्तवचनेषु इति सूत्रेण अव्ययी पद अव्ययपदम् अधि इति नौकायं नौका इति सुबन्धेन सह समस्यते. तदनन्तरं कृत्तदिधसमासश्च इति सूत्रेण समसम्पूर्ण पदानां प्रातिपदिकसंज्ञा अपि भवति. तदनन्तरं सुपोधातुप्रातिपदिकयो इति सूत्रेण सुप् विभक्तीनां लुप् भवति. गोपा नौकायोगा अधि भवति. तत् सुप्तिङ्गन्तं पदम् इति सूत्रेण पदसंज्ञा भवति. प्रत्ययलोभे प्रत्ययलक्षणं कृत्वा पदं पदसंज्ञा भवति सुप्तिङ्गं पदम् इति सूत्रेण. तदनन्तरं किं पदं पूर्वं भवति किं पदम् उत्तरं भवति इति दृश्यते चेत् प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रस्य कारणेन अव्यय विधेयसूत्रम् अव्ययं विभक्तिसमीपसंवृत्तिवृत्ति दीर्घसूत्रस्य अव्ययं पदमेव प्रथमा विभक्त्याम् अस्ति कृत्वा तस्य उपसर्जनं पूर्वम् इति सूत्रस्य कारणेन पूर्वनिपातं भवति इति कृत्वा अधिनौका इति रूपं सिद्ध्यति. तदनन्तरम् अव्ययीभावश्च इति इति सूत्रेण अव्ययीभावसमासे निर्दिशब्दस्य अव्यय अव्ययभावस्य इति सूत्रेण लिङ्गं भवति नपुंसकलिङ्गम्. अधिनौका इति नपुंसकलिङ्गम् इति कृत्वा ह्रस्वो नपुंसकप्रातिपदिकस्य सूत्रस्य प्रसक्तिः अस्ति. तद् तस्य कारणेन अतिनौका इति अन्तिम दीर्घ आकारस्य ह्रस्वत्वं भवति अतिनौका इति भवति. तदनन्तरं सुबुत्पत्ति ज्ञाप्रातिपदिकात् इति प्रातिपदिकसंज्ञा भूत्वा स्वौजस् इति दीर्घसूत्रस्य विधानेन सुप् उत्पत्ति भवति. तत्र अव्ययताप् सुपः इति सूत्रस्य प्रसक्तिः अस्ति किन्तु विप्रस्दिशेदे परं कार्यमिति सूत्रस्य प्रसक्तिः अस्ति कृत्वा न अव्ययीभावात् अतौन्त्वो पञ्चम्या इति सूत्रस्य बलं भूत्वा सुप् स्थाने अम् आदेशः भवति पञ्चमी विभक्तिं विहाय.
अत्र महोदय विप्रतिषेधः इति उक्तवान्, किञ्चित् इतोपि किञ्चित् विवरणं ददातु. अत्र पूर्वसूत्रं किं, परसूत्रं किं, विप्रतिषेधे परं कार्यम् इति सूत्रेण किं भवति अत्र?
अत्र सुप् उत्पत्ति भवति स्वौजसम् इति सूत्रेण. तस्य अव्ययतापसुपः इति सूत्रेण तस्य लुक् भवितुम् अर्हति. तत् सूत्रम् अस्ति द्वितीयसूत्र चतुर्थपादे द्वशीति सूत्रं. तस्य अनन्तरम् अस्ति अग्नाभावतत्वपञ्चम्यात् तदस्ति परं परं सूत्रं परं सूत्रं बलं भवति विप्रतिषेधे परं कार्यम् इति सूत्रेण सूत्रस्य बलाबल चिन्तनं कृतं चेत्
सूत्राणां बलाबलचिन्तनम् इति तत्र व्याकरणे वयं चर्चितवन्तः पूर्वं व्याकरणवर्गे वयं पठितवन्तः सूत्राणां बलाबलम् इति तत्र पूर्वसूत्रं प्रति परसूत्रं बलवत् भवति विप्रतिषेधे परं कार्यम् इति सूत्रेण विप्रतिषेधे परं कार्यम् इति सूत्रं सपाद सप्ताध्याय्याम् अस्ति. वयं जानीमः अष्टाध्यायी पुस्तकं भागद्वयम् अस्ति. सपाद सप्ताध्यायी द्वितीयभागस्य नाम त्रिपादी अस्ति. त्रिपाद्यां प्रथमं सूत्रमेव पूर्वत्रासिद्धम् इति एकं सूत्रमस्ति. किन्तु विप्रतिषेधे परं कार्यं सूत्रं सपाद सप्ताध्याय्याम् अस्ति इति कृत्वा विप्रतिषेधे परं कार्यम् इति सूत्रेण परसूत्रं बलवत् भवति. वदतु.
तत्र अतिनौका योगः अम् आदेशः भवति न व्ययभाव ततो तु पञ्चम्या इति सूत्रेण पञ्चमीं विभक्तिं विहाय पञ्चमी विभक्ति तु पञ्चमी विभक्ति न भवति. तत्र अतिनौका योगः अम् इति रूपम् अमिपूर्व इति सूत्रेण अधिको अतिनौकम् इति रूपं सिद्ध्यति. किन्तु पञ्चमी विभक्ति अतिनौकात् एव भवति. तृतीय सप्तम्योर्बहुलम् इति सूत्रस्य कारणेन तृतीया एवं सप्तमी विभक्तिम् अतिनौकम् अतिनौकेन सप्तमी विभक्ति अतिनौकम् अतिनौके इति विकल्परूपम् अपि दृश्यते.
उत्तमं धन्यवादः महोदय, उत्तमरीत्या उक्तवान्. अत्र एतावत् अन्यासु विभक्तिषु एकमेव रूपं सिद्ध्यति अधिनौकम् इति भवति. यथा अत्र सुमन् भगिन्या उक्तम् अधिशालम्, अत्र अधुना वयम् अधिनौकम् इत्युक्ते अनयोः पदयोः प्रक्रियायां भेदः नास्ति. अधिनौकम् अधिशालम् द्वयोः प्रक्रिया समाना एव. अत्र केवलं ह्रस्वोनपुंसके प्रातिपदिकस्य इति सूत्रस्य प्रसक्तिः अस्ति. तेन उत्तरपदस्य ह्रस्वत्वं भूत्वा अदन्तम् अङ्गं प्राप्नुमः. तदेव अत्र वैशिष्ट्यमस्ति. तृतीयं पदमस्ति आकाशे इति विग्रहवाक्यम् आकाशे इति. अधुना सरला भगिनी
एकनिमिषम् एकः प्रश्नः अस्ति. तत्र स्वौ जस्ट् औट् कार्यं कर्तुं शक्नोति, नो चेत् अव्ययात् आप्सुपः, नो चेत् नाव्ययी भावादतोम् तु पञ्चम्याः. तत्र सु औजस् कार्यं न करोति, तस्य अपवादसूत्रम् अस्ति किम् अव्ययात् आप्सुपः.
अत्र चिन्तनं कथं भवति इत्युक्ते अधिनौका इत्यस्य प्रातिपदिकसंज्ञा अस्ति इति कृत्वा प्रातिपदिकात् सुप्रत्ययानां योजनं कुर्मः चेदेव तस्य पदस्य प्रयोगं वाक्ये कर्तुं शक्नुमः इति कृत्वा प्रातिपदिकं स्वीकृत्य वाक्ये तस्य प्रयोगं कर्तुं न शक्यते इति कृत्वा सुपः योजनं भवति एव. किन्तु अत्र अव्ययात् आप्सुपः सूत्रेण कार्यं भवति वा, नो चेत् नाव्ययीभावादतोऽङ्क पञ्चम्याः इति सूत्रस्य कार्यं भवति वा, तयोर्मध्ये कस्य सूत्रस्य प्राप्तिः भवति इति चिन्तयामश्चेत् अत्र महोदयेन एकम् उक्तं विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रं बलवत् भवति इति भवान् महोदयः उक्तवान्. किन्तु अत्र चिन्तनं किं भवति इत्युक्ते अव्ययात् आप्सुपः इति सूत्रं सामान्यसूत्रम्, न अव्ययीभावादतोऽन्त्वपञ्चम्याः इति विशिष्टसूत्रं. साधारणतया व्याकरणे प्रथमतया सामान्यसूत्रं जानीमः तदनन्तरं तस्मिन् तस्य स्थाने विशिष्टसूत्रस्य प्रसक्तिः अपि च प्राप्तिः साधारणतया भवति इति कृत्वा सामान्यसूत्रम् अव्ययात् आप्सुपः किन्तु अत्र पदम् अदन्तमस्ति इति कृत्वा अव्ययीभावसमासः अदन्तपदमस्ति इति कृत्वा न अव्ययीभावादत्वन्त्वपञ्चम्याः इति विशिष्टसूत्रेण कार्यं भवति इति विषयः.
तत्र सूत्रत्रयस्य प्रसक्तिः अस्ति, परसूत्रमस्ति अव्ययी भावात् अतो अम् तु पञ्चम्याः सूत्रं परसूत्रम् अस्ति, अतः अव्ययात् सुपसूत्रस्य अपेक्षया तत् कार्यं करोति. किन्तु स्वौ जस् औट् सूत्रस्य अपेक्षया अन्यद्वयम् अन्यद्वयस्य प्रसक्तिः अस्ति किं बिकास् आफ़्
अत्र पश्यतु, अत्र यदि वयं रूपाणि पश्यामश्चेत् एकवारं समस्तपदं निर्माणं कृत्वा तत्र सर्वासु विभक्तिषु रूपाणि परिशीलयामश्चेत् अत्र अधिगोपेन इति पदं विकल्पेन सिद्ध्यति. अधिगोपेन इति पदं कथं सिद्ध्यति इत्युक्ते तत्र सौजसमौट् इति दीर्घसूत्रेण एव तत्र तृतीयाविभक्तिप्रत्ययं ताप्रत्ययस्य योजनं भवति इति कृत्वा एव तत्र विकल्पेन रूपद्वयं सिद्ध्यति. अन्येषु अन्यासु विभक्तिषु तत्र यत्र यत्र केवलम् अधिनौकम् अथवा अधिगोपं यत्र यत्र अस्ति तत्र अम्भावः भवति, अपि च अव्ययात् आप्सुपः इत्यस्य प्रसक्तिः तत्र नास्ति.
अस्तु अस्तु, इदा इत्युक्ते स्वौ जस् औट् तु कार्यं करोति, अनन्तरं तस्य लुक् न भवति, किन्तु स्थाने तस्य स्थाने क्षम्यतां न तस्मिन् स्थाने एव आदेशः भवति.
धन्यवादः. उत्तमम्. अधुना अत्र सरला भगिनी भवती वदतु अत्र आकाशे इति
आकाशे इति लौकिकविग्रहवाक्यम् अस्ति. समस्तपदं भवति अधि आकाशम्. अलौकिकविग्रहवाक्यं भवति आकाश योगनी योग अधि अधि अस्य सुप्रत्ययस्य लोपः भवति अव्ययात् आप्सुप अनेन. तदनन्तरं प्राकरासमास अनेन समाससंज्ञा आगच्छति. अव्ययीभाव इति सूत्रेण अव्ययी अव्ययसंज्ञाम् आप्नोति. तदनन्तरम् अव्ययं विभक्ति समीप समृद्धि व्यधि अर्थाभाव अत्यय असमृद्धि शब्दप्रादुर्भाव पश्चात् यथा अनुपूर्व्य योगपद्य सादृश्य सम्पत्ति साकल्य अन्तवञ्चलेषु अनेन विशिष्ट अव्ययी संज्ञा आगच्छति. तदनन्तरम् आकाश योगनी योग अधि अत्र तिष्ठसमासस्य अनेन प्रातिपदिकसंज्ञा भवति. सुपो प्रा धातु प्रातिपदिकयो अनेन सुप्रत्ययस्य लोपः भवति. तद् आकाशयोग अधि भवति. सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा भवति. प्रत्ययलोपे प्रत्ययलक्षणम् अनेन पदसंज्ञा तिष्ठति. इदानीं प्रथमानिर्दिष्टं समास उपसर्जनम् अनेन अधि इति पदस्य उपसर्जनसंज्ञा भवति. उपसर्जनं पूर्वम् अनेन अधि तस्य पूर्वनिपातः भवति. सो अधि आकाश इति समस्तपदं भवति. इदानीम् अव्ययीभावश्च अनेन अव्ययी अव्ययसंज्ञा भवति. तदनन्तरम् अव्ययीभावश्च अनेन क्षम्यताम् अधि आकाश इति यदि आगच्छति तत्र सन्धि कार्यं प्रथमं भवति अध्याकाश इति भवति, तदनन्तरम् अव्ययी भावश्च संज्ञा अव्ययसंज्ञा अविभावश्च अस्ति, नपुसिङ्ग लिङ्गम् आगच्छति, तदनन्तरं ह्रस्वो नपुसिङ्गे प्रातिपदिकस्य प्रसक्तिः अस्ति, प्राप्तिः अपि अस्ति, किन्तु परिवर्तनं न भवति, अधि आकाश एव तिष्ठति। तदनन्तरं सुप् उत्पत्ति भवति, सु औजस् अम् औट् अम् औजस् ताभ्यां धृस् नस् नस् भ्यां भिस् नस् औस् आम् तदनन्तरमस्ति नसि औसु इति सूत्रेण सुप् इति भवति। तदनन्तरम् अव्ययात् आप् सुप् इति प्रबाध्य यथा वयं पूर्वं चिन्तितवन्तः न अव्ययीभावातो न अव्ययीभावातों त्वपञ्चम्या अनेन सूत्रेण अम् आदेशः भवति, आकाशम् इति भवति, न तु पञ्चम्या विभक्त्यां विहाय। सो इदानीं प्रातिपदिकम् आगच्छति अध्याकाशम् इति भवति, पञ्चम्या विभक्त्यां टाङ्ग् सिङ्ग् सामन्नात् स्वामिनतस्य अनेन आत् इति आगच्छति, तत्र अध्या आकाशात् इति विकल्पेन एकं अध्या आकाशात् इति भवति, विकल्प नित्यम् अस्ति तत्र, सो अध्या आकाशात् पञ्चमी विभक्ति आहत्य तदनन्तरम् अध्या आकाश यदि आकाशम् अपि भवति तदनन्तरम् अमि पूर्व इति सूत्रम् आगच्छति, पूर्वपरयोस्थाने पूर्वरूप तिष्ठति, सो अध्य आकाशम् इति प्रातिपदिकं भवति, नो पदम् अस्ति प्रातिपदिकं न कारणं सुप् अस्ति तत्र, सो अध्य आकाशम् इति भूत्वा अस्माकं रूपाणि भवति अध्याकाशम् अध्याकाशम् अध्याकाशं प्रथमाविभक्तिं, द्वितीयाविभक्तिं भवति अध्याकाशम् अध्याकाशम् अध्याकाशं, तृतीयो सप्तम्या बहुलम् अनेन द्वे रूपे आगच्छन्ति, अध्याकाशम् एकरूपम् अध्याकाशेन द्वितीयरूपं, तथैव द्वितीयाविभक्त्याम् अध्याकाशम् अध्याकाशाभ्याम् अध्य आकाशम् अध्य आकाशैः, चतुर्थी विभक्ति अध्य आकाशं त्रिषु वचनेषु, पञ्चम्या विभक्त्याम् अध्य आकाशात् अध्य आकाशाभ्याम् अध्य आकाशेभ्य इति भवति, षष्ठमी विभक्ति अध्य आकाशम् अध्य आकाशम् अध्य आकाशं, सप्तमी विभक्त्यां पुनः तृतीया सप्तमो बहुल्यम् अनेन अध्य आकाशे एकरूपं भवति, द्वितीयरूपं भवति अध्य आकाशम् अध्य आकाशा अध्य आकाशयोः अध्य आकाशम् अध्य आकाशेषु अध्य आकाशम् इति सम्बोधनम् अद्य आकाशं त्रिषु वचनेषु
उत्तमं। इत्युक्ते अत्र अस्मिन् पदे किमपि वैशिष्ट्यं नास्ति, केवलं सन्धिकार्यम् एव अत्र करणीयम् अस्ति, अत्र इको यणचि इति सूत्रेण यण् सन्धिः भूत्वा अत्र अध्याकाशम् इति पदं सिद्ध्यति। उत्तमम्। अन्तिमं पदम् अस्ति रमायाम् इति पदमस्ति, गीताञ्जलि भगिनी भवती प्रयत्नं करोतु
भगिनी, तत्र किम् अर्थं रमायां भगिनी अधि रमाम् इति लिखितवती,
अधिरमम्
मम करपत्रे प्रायः मुद्रणदोषः अस्ति किन्तु अधिरमाम् अस्ति करपत्रे।
ओ एवं वा, अस्तु, अत्र मुद्रणदोषः एव, किन्तु रमा इति पदम् अपि वयं जानीमः एव,
किमपि विशेषः नास्ति,
नास्ति केवलं मुद्रणदोषः, पदं तु अधिरमम्। गीताञ्जलि भगिनी भवती प्रयत्नं करोतु।
आं भगिनी प्रयत्नं करोमि। रमायाम् इति तु लौकिकविग्रहवाक्यं, समस्तपदं तु अधि रमम् इति अस्ति. सम्पूर्णप्रक्रिया वदामि, प्रयत्नं करोमि. रमायाम् अस्ति इत्युक्ते सप्तमी अर्थ एव अस्ति अत्र. इत्युक्ते रमा योगः ङि योगः अधि अधि आयाति. दीर्घसूत्रेण किन्तु प्रथमं तु समाससंज्ञा एव भवति प्राक्कडारात् सूत्रेण. तदनन्तरं अव्ययीभावः सूत्रेण अव्ययीभावसमाससंज्ञा भवति. तदनन्तरं दीर्घसूत्रेण अव्ययं विभक्ति समीप समीपसमृद्धि वृद्धि अर्थाभावत्यया सम्प्रति शब्दप्रादुर्भाव पश्चादथानुपूर्वयौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु सूत्रेण अधि इति अव्ययं भवति. तदनन्तरं कृत्तधिस्थसमासाश्च सूत्रेण प्रातिपदिकं संज्ञा भवति. इत्युक्ते रमायोगः नियोगः अधि सम्पूर्ण प्रातिपदिकसंज्ञा स्वीकरोति. तदनन्तरं सुपोधातुप्रातिपदिकयोः इति सूत्रेण सुब् लुक् भवति. इत्युक्ते नि लोपः भवति. इत्युक्ते रमायोगः अधि इति तिष्ठति. सुप्तिङन्तं पदम् इति सूत्रेण पदसंज्ञा भवति. इत्युक्ते रमायोगः अधि इति एकं पदं भवति. तदनन्तरं सुब्लुक् तु भूत्वा एव किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण लक्षणं पदसंज्ञा सुप् लक्षणं तु तिष्ठति एव. तदनन्तरं रमायोगः अधियोगः अधि अपि एकं सुप् प्रत्यय स्वीकरोति अत्र. सो रमायोग अधियोगः सु अव्यया तापसूपः अधुना कार्यं करोति. अपि च तत् सु प्रत्यय अपि लोपः भवति.
भगिनी अत्र अत्र कीदृशं चिन्तनं भवेत् इत्युक्ते अधिशब्दस्य प्रसङ्गे अधिशब्दात् पूर्वमेव अव्यया तापसूपः इत्यनेन पूर्वम् एव सुप्रत्ययस्य लोपः पूर्वमेव अभवत्. किन्तु यदि सुप्रत्ययस्य लोपः भवति चेत् अधि इति पदं तस्य पदसंज्ञा अस्ति वा, तस्य पदम् इति वक्तुं शक्यते वा, अधि इति पदं भवति वा इति प्रश्नस्य उत्तरं किम् इत्युक्ते यस्य पदस्य अन्ते सुप्रत्ययः अस्ति तत् पदं सुबन्तम् इति सुप्तिङन्तं पदम् इति सूत्रेण वयं जानीमः. अत्र यद्यपि सुप्रत्ययः पूर्वम् आसीत् अधुना नास्ति चेदपि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तत् अधिशब्दस्य पदसंज्ञा अस्ति इति तत्र विषयः. अग्रे सरतु.
अस्तु अस्तु. इत्युक्ते सुप्तिङन्तं पदम् इति सूत्रं कार्यं करोति. सम्पूर्ण रमायोग अधिपदसंज्ञा भवति. अपि अधि तस्य सुप्रत्यय अपि अस्ति पदसंज्ञा भवति. किन्तु अव्यय तापसूपः इति सूत्रेण सुब्लुक् भवति. तदनन्तरं प्रत्यय लोपे प्रत्ययलक्षणम् इति सूत्रेण सुब्लुक् तु भूत्वा किन्तु तस्य लक्षणं तु तिष्ठति इति. समीचीनं भगिनि. अधुना रमायोग अधि प्रथमा निर्दिष्टं समास इति सूत्रं कार्यं करोति. इत्युक्ते यस्य प्रथमा विभक्ति अस्ति तत्तु उपसर्जनसंज्ञा स्वीकरोति, इत्युक्ते अत्र तु अधि प्रथमाविभक्तिरूपम् अस्ति इत्युक्ते उपसर्जनसंज्ञा स्वीकरोति, तदनन्तरम् उपसर्जनं पूर्वं सूत्रेण अधि पूर्वपदं भवति, अत्र अधियोगः रमा आयाति, अधिरोग योगः रमा अत्र अत्र अव्ययीभावश्च इति कार्यं करोति, तत्तु सम्पूर्ण अव्ययं संज्ञा भवति, तदनन्तरम् अव्ययीभावश्च द्वितीयसूत्रेण तु नपुंसकलिङ्गम् इति लिङ्गं भवति, रमायोग अधियोग अधियोग रमा इति नपुंसकलिङ्गं भवति, अधिरमा ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अन्तिम तु दीर्घ आकार अस्ति तत् ह्रस्व भवति, इत्युक्ते अधिरम अधिरम इति भवति, अधिरम रम तु अजन्त अस्ति, अजन्त अस्ति,
अदन्त
अदन्त क्षम्यतां भगिनि, अदन्तम् अदन्तम् अस्ति, अत् अत् अन्तम् अदन्तम् अस्ति, तदनन्तरं दीर्घ सुवौजस् अमौट् षस् इति सूत्रेण पुनः सुप् प्रत्यय आयाति, इत्युक्ते अधीर् अधीरमा योगः किमपि सुप् सुप्रत्ययाति, किन्तु सु तत् प्रत्यय अपि अव्ययात् आप्सुपः सूत्रेण तु लुप् भवति एव, किन्तु अत्र अदन्त अस्ति चेत् एकं विशिष्टसूत्रं बाधकसूत्रम् अत्र तु बाधक तु न, किन्तु बाधकसूत्रं
विशिष्टसूत्रमेव
विशिष्टसूत्रेण कार्यं करोति, तत्तु विशिष्टसूत्रं तु नाव्ययीभावात् तों त्व पञ्चम्याः इति सूत्रेण सुप् प्रत्ययस्य स्थाने अम् आयाति, इत्युक्ते अधि रमम्, किन्तु तृतीया सप्तम सप्तम्योर्बहुलम् इति सूत्रेण सर्वेषु समस्त पदेषु तु अम् न आयाति, किन्तु तृतीया अपि च सप्तमी विभक्त्यां विकल्पेन एकम् अन्यरूपम् अस्ति, इत्युक्ते तृतीयरूपेण तु अधि अधिरमया एकं विकल्परूपम् आयाति, अनन्तरम् अधिरमम् एव
भगिनि, किमर्थं रमया?
ओ रमं रमेण, क्षम्यतां भगिनि, नपुंसकलिङ्गमेव अस्ति, क्षम्यतां अधिरमं तु अधिरमेण वा अधिरमं वा इति अस्ति, अपि च सप्तमी तु अधिरमे अपि अधिरमम् इति आयाति, किन्तु पञ्चमी विभक्त्यां टाङ् असि मीनात्स्या इति सूत्रेण पञ्चमी किमपि परिवर्तनं न स्वीकरोति, इत्युक्ते तत्तु रूपम् अधि अधिरमात् एव तिष्ठति, सर्वाणि रूपाणि तु अधिरमं प्रथमा द्वितीय अपि अधिरमं तृतीय तु अधिरमम् अधिरमेण चतुर्थी अधिरमं पञ्चमी अधिरमात् षष्ठी अधिरमं
सप्तमी अधिरमम् अधिरमे सम्बोधन अधिरमम् अधिरमम् एव अस्ति भगिनि.
उत्तमम् उत्तमं भगिनि, उत्तमरीत्या उक्तवती, सम्पूर्णरीत्या धन्यवादः. एतावत् अस्मिन् अधिरमेण इति तत्र णत्वं भवति इति एकः विषयः अस्ति. अपि च अत्र वैशिष्ट्यं किमपि नास्ति अस्मिन् पदे. समस्तपदं तु अधिरमं, तृतीयाविभक्त्यां सप्तमीविभक्त्यां भिन्नरूपाणि, पञ्चमीविभक्त्यां अपञ्चम्याः इति सूत्रे उक्तमस्ति इति कृत्वा तत्र पञ्चमीविभक्त्यां तत्र विकल्पेन अन्यत् रूपं न सम्भवति, केवलं अधिरमात् इति रूपमेव सिद्ध्यति. एतावत्पर्यन्तम् उत्तरपदम् अजन्तपदम् अथवा अदन्तपदमस्ति चेत् कीदृशं कार्यं भवति इति वयं दृष्टवन्तः. किन्तु उत्तरपदं हलन्तपदं भवति चेत् किं भवति इति गते सप्ताहे वयं किञ्चित् परिशीलितवन्तः. अध्यात्मम् इति पदं स्वीकृत्य उत्तरपदं तत्र आत्मन् इति नकारान्तपदं पुंलिङ्गपदम् अस्ति, तत्र भिन्नकार्याणि भवन्ति इति वयं दृष्टवन्तः. तत्र अव्ययीभावसमास समासान्तप्रत्ययानां विधानं भवति इति अपि वयं दृष्टवन्तः. अपि च नस्तद्धिते इति सूत्रस्य प्रसक्तिः अपि तत्र अस्ति. अध्यात्मम् इति पदस्य प्रसङ्गे वयं जानीमः एव. अद्य कानिचन अन्यानि नकारान्तपदानि एकवारं परिशीलयामः. तत्र अनश्च इति सूत्रेण टच् इति समासान्तप्रत्ययस्य विधानं भवति. उत्तरपदम् अनन्तपदम् अपि च पुंलिङ्गपदम् अथवा स्त्रीलिङ्गपदं भवति चेत् टच् विधीयते अनश्च इति सूत्रेण, नित्यरूपेण विधीयते इति वयं दृष्टवन्तः. तत्र अध्यात्मम् इति पदम् इत्यस्मिन् पदे आत्मा इति पदं पुंलिङ्गपदमस्ति. तदर्थम् अनश्च इति सूत्रस्य प्रसक्तिः तत्र अस्ति. अधुना वयम् एकं स्त्रीलिङ्गपदम्, उत्तरपदं हलन्तपदं स्त्रीलिङ्गपदम् अपि च नकारान्तपदम् अनन्तपदं स्वीकृत्य चिन्तनं कुर्मः. तदर्थम् अत्र एकं पदमस्ति, सप्तमी विभक्ति एकवचनरूपं सीमनि इति भवति. सीमनि इति विग्रहवाक्यमस्ति चेत् समस्तपदं किं भवति, तत्र सोपानानि कानि इति एकवारं परिशीलयामः. श्रीराम महोदय, भवान् एकवारं साधयतु रूपम्. सीमनि इति.
नमस्कार भगिनि, अत्र सीमनि इति सप्तमी विभक्तौ अस्ति इति कृत्वा तत्र सीमन् इति प्रातिपदिकं तेन सह प्रातिपदिकेन सुप् प्रत्ययः नि इति सुप् प्रत्ययः. तदनन्तरम् अव्ययमस्ति अधि इति. एतद् अलौकिकविग्रहवाक्यं. तदनन्तरम् इदानीं अव्ययम् अव्ययं विभक्तिसमीपसमृद्धि इति सूत्रेण अपि च सहसुपा इति सूत्रेण अनुवृत्तिरूपेण यथायाति तद्वदति अव्ययं समर्थेन सुबद्धेन समस्यते इति वदति. अतः अत्र विभक्त्यर्थे अधि इति अव्ययं सीमन् इति सुबन्तेन समस्यते इति अर्थः भवति. इदानीं समासकार्यम् आरम्भं भवति. प्राकडारसमासः इति सूत्रेण तस्य इदानीं लौकिकविग्रहवाक्ये यानि पदानि सन्ति तेषाम् अत्र समाससंज्ञा भवति. समाससंज्ञा भवति. इदानीं समाससंज्ञा विधानान्तरं सुप् प्रत्ययस्य लोपः भवति. सुप् प्रत्ययस्य सुपोधातुप्रातिपदिकयोः इति सूत्रेण लुक् भवति, क्षम्यतां, लुक् भवति, लोपः नास्ति, लुक् भवति. इति कृत्वा सीमन् योग अधि इति भवति. इदानीं सीमन् अपि च अधि इति अनयोः पदयोः प्रातिपदिकयोः पदसंज्ञा अस्ति प्रत्ययोपि प्रतिलक्षणम् इति कारणेन पदसंज्ञा तिष्ठति एव. इदानीं समासकार्ये प्रथमं निपातनिर्णयं करणीयं, पूर्वनिपातनिर्णयं करणीयम्. इदानीं प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रम् अस्ति. इदानीं प्रथमाविभक्तौ यत् पदं निर्दिष्टम् अस्ति तेन पदेन यत् लौकिकविग्रहवाक्ये यत् पदं लक्षितम् अस्ति तत्पदं पूर्वं भवति. इदानीम् अव्ययम् इति प्रथमाविभक्तौ अस्ति इति कृत्वा तत्र अधि इति पदम् एव पूर्वनिपातं भवति, पूर्वनिपातः भवति, तस्य पूर्वनिपातः भवति इति कृत्वा अधि योग सीमन् इति भवति, अधियोग सीमन् इति अस्ति. इदानीं इदानीं किं भवति, तस्य अविभावः संज्ञा अपि अस्ति. अविभाव इति संज्ञा अपि अविभावः इति सूत्रेण भवति. अपि च अव्ययं संज्ञा अपि अस्ति अव्ययभावश्च इति सूत्रेण, प्रथम अध्याये सूत्रम् अस्ति तेन सूत्रेण. इदानीं ज्ञाप्रातिपदिकात् इति प्रातिपदिकसंज्ञा अपि तिष्ठति इति कारणेन प्रातिपदिकात् इदानीं सुप् विधानं भवति. अपि च नपुंसकलिङ्गम् अपि अस्ति स नपुं अविभावश्च इति सूत्रेण यत् द्वितीयाध्याये अस्ति नपुंसकलिङ्गसंज्ञा अस्ति इति कृत्वा इदानीं प्रातिपदिकसंज्ञा अस्ति, नपुंसकलिङ्गसंज्ञा अस्ति, अव्ययं संज्ञा अस्ति, अविभावसंज्ञा अपि अस्ति. इदानीं अधि योग श्रीमन् इति अस्ति. श्रीमन् इति अनन्तशब्दः अस्ति, श्रीलिङ्गे अनन्तशब्दः अस्ति. इदानीं किं भवति इत्युक्ते अनन्त अस्ति चेत् इदानीं टच् प्रत्ययस्य योजनं भवति. टच् प्रत्ययः टच् प्रत्यये इदानीं टकारस्य लोपः भवति चटु इति सूत्रेण. अपि च चकारस्य अपि लोपः भवति हलन्त्यम् इति सूत्रेण, तस्य लोपः इति सूत्रेण अपि, अतः अकारे एव अवशिष्यते. इदानीं तच् इति तद्धितप्रत्ययः अस्ति. टच् यदा तद्धितप्रत्ययः अस्ति तदा किं भवति इत्युक्ते नष्टद्विते अनन्तात् तद्धितप्रत्ययः अस्ति चेत् तदा किं भवति इत्युक्ते तत्र अनन्तशब्दस्य टीसंज्ञकस्य टीसंज्ञवर्णानां टीसंज्ञवर्णानां लोपः भवति इति नष्टद्विते इति सूत्रेण वयं जानीमः इति कृत्वा इदानीम् अधियोगः सीमन् योगः योगः सु इति अस्ति. इदानीं तत्र सीमन् इति पदे टीसंज्ञकवर्णः अस्ति, अण् इति अस्ति, अण् इति टीसंज्ञकवर्णः अस्ति, तस्य नष्टद्विते इति सूत्रेण लोपः भवति. इदानीं किं भवति अधि सीमं सीम् इति भवति, अधिसीम् योग अयोगः सु इति अस्ति. इदानीं वर्णमेलनं कुर्मश्चेत् अधिसीमयोगसु इति अधिसीमयोगसु इति अस्ति. इदानीम् अकारान्तः अस्ति, अव्ययसंज्ञा अपि अस्ति इति कृत्वा न अव्ययीभावात् अतोङ्कपञ्चम्याः इति सूत्रं तत्र प्रवर्तते. न अव्ययीभावात् अतोङ्कसंज्ञा अतोन्तो पञ्चम्याः इति सूत्रं किं वदति, यदा अङ्गः प्रातिपदिकरूपेण यत् सुप्त प्रजा पूर्वं यत् अस्ति अङ्गरूपेण अदन्तः अस्ति चेत् तस्य इदानीं सुप् प्रत्ययस्य अम्मादेशः भवति, सुप्रत्ययस्य अम्मादेशः भवति त्रु पञ्चम्याः इत्युक्ते पञ्चमे विभक्तौ सुप्प्रत्ययं सुप्रत्ययाः सप्तमी विभक्तौ ये सुप्रत्ययाः सन्ति ते अवशिष्यन्ते, तेषाम् अम्मा अम्भावः न भवति. इदानीं तृतीयासप्तम्योर्बहुलम् इति विकल्परूपेण तृतीयाविभक्तौ सप्तमीविभक्तौ अपि तत्र विभक्तिप्रत्यययोजनं भवति विकल्पेन इति कृत्वा इदानीम् अदि सीम योग अम् इति अस्ति. प्रथमाविभक्ति एकवचनं रूपं स्वीकुर्मश्चेत् अदि सीमं योग अम् इति अस्ति. इदानीम् अधिसीमयोग अम् इति अस्ति. अमीपूर्वः इति विशिष्टसूत्रम् अस्ति. अम् यदा अम् प्रत्ययः परे अस्ति चेत् तदा किं भवति इत्युक्ते पररूपमेकादेशः भवति, अधिसीमम् इति एव रूपं भवति. प्रथमाविभक्तौ अधिसीमम् अधिसीमम् अधिसीमम्, द्वितीयाविभक्तौ अधिसीमम् अधिसीमम् अधिसीमम्, तृतीयाविभक्तौ अधिसीमम् अधिसीमेन अधिसीमम् अधिसीमाभ्याम् अधिसीमम् अधिसीमैः इति भवति. चतुर्थो विभक्तौ चतुर्थीविभक्तौ अधिसीमम् अधिसीमम् अधिसीमम्, पञ्चमी विभक्तौ तत्र अधिसीमं क्षम्यतां पञ्चमी विकल्पः नास्ति इति कृत्वा अधि सीमात् अधिसीमाभ्याम् अधिसीमेभ्यः इति भवति. षष्टिविभक्तौ अधिसीमम् अधिसीमम् अधिसीमं, सप्तमीविभक्तौ अधिसीमम् अधिसीमे अधिसीमे अधिसीमम् अधिसीमयोः अधिसीमम् अधिसीमेषु सम्बोधने अधिसीमम् अधिसीमम् अधिसीम.
उत्तमं महोदय, धन्यवादः, उत्तमरीत्या उक्तवान्. अत्र सीमनि सीमा इति पदं स्त्रीलिङ्गपदमस्ति इति कृत्वा तत्र अनश्चय इति सूत्रे पुंलिङ्गे वा अथवा स्त्रीलिङ्गे वा अनन्तपदम् उत्तरपदम् अनन्तपदम् अस्ति चेत् अनश्चय सूत्रेण समासान्तप्रत्ययस्य विधानं भवति. तदनन्तरं नस्तद्धिते इति सूत्रेण तत्र टी भागस्य लोपः भवति इति विषयः अस्ति. तदेव अत्र वैशिष्ट्यमस्ति. दामनि इति लिखितमस्ति तत्र. महोदय, भवानेव प्रक्रियां मा वदतु, केवलम् अत्र वैशिष्ट्यं किम् अस्मिन् पदे इति किञ्चित् वदतु. दामनि इति तस्मिन् पदे
करपत्रे अस्ति स्त्रीलिङ्गपदं दामन् सामन् अपि.
इत्युक्ते अत्रापि वैशिष्ट्यं नास्ति सीमनि इति. तादृशं कार्यमेव अत्रापि भवति, किन्तु नकारान्तपदम् अस्ति इदं पदं नकारान्तपदं स्त्रीलिङ्गपदं चेत् अत्रापि अनन्तस्त्रीलिङ्गपदमस्ति इति कृत्वा अनश्च इति विशिष्टसूत्रस्य कार्यं भवति. समासान्तप्रत्यय टच् इति समासान्तप्रत्ययः विधीयते. टच् योजनेन अन्ततो गत्वा तत्र फलितार्थः कः इति पश्यामश्चेत् केवलम् अदन्तम् अङ्गं साधितं तत्र. तदर्थमेव समासान्तप्रत्ययस्य विधानं भवति अनश्च इति सूत्रेण. अनन्तपदम् अपि च नपुंसकलिङ्गपदम् अस्ति चेदेव नपुंसकादन्यतरस्याम् इत्यस्य प्रसक्तिः अस्ति. अन्तिमं पदमस्ति दण्डिनि इति.
एकनिमिष भगिनि, तत्र टच् न आयाति चेत् तत् अदन्तं न भवति खलु?
न भवति.
नपुंसकलिङ्गे रूपाणि कथं भवन्ति टच् न आयाति चेत्
सुप् योजने तदनन्तरं न लोप तस्य प्रसक्ति
इत्युक्ते तत्र नलोपः प्रातिपदिकान्तस्य सूत्रमस्ति इत्युक्ते नलोपः प्रातिपदिकान् गते सप्ताहे भवती एव उक्तवती अत्र विद्यार्थी इति पदमस्ति अथवा गुणी
तत् तु भगिनी उक्तवती खलु तत्र भिन्न अस्ति तत् इदानीं तु दण्डिन् पश्यामः चेत् मम प्रश्नस्य उत्तरं प्राप्नोति
उत्तमं दण्डिनी इति पदस्य प्रसङ्गे किञ्चित् चिन्तनं कुर्मः अत्र दण्डिनी इति कीदृशं पदम् इत्युक्ते सप्तमी विभक्ति एकवचनरूपं दण्डिनी अस्ति तत्र प्रथमाविभक्त्यन्तं रूपं दण्डी इत्युक्ते यस्य दण्डः अस्ति सः दण्डी दण्डी तत्र गुणी शब्दवत् शब्दवत् नकारान्तपदमस्ति अत्र
ईकारः न इकारः
दीर्घ
ईकारः ईकार
अन्ते इन् अस्ति न तु अन्
अत्र किं किञ्चित् तस्य परिशीलनं कुर्मः अत्र सरला भगिनी भवती एव करोतु
अस्तु दण्डीन् इति अस्ति लौकिकविग्रहवाक्यं तस्य समस्तपदं भवति अधिदण्डि लौकिकविग्रहवाक्यं भवति दण्डिन् योग नी योग अधि अधि इति उप अव्ययस्य अव्ययात् आप्सुप तस्य सुप्लोप भवति तदनन्तरम् अधि दण्डन् योग नी योग अधि प्राकरणसमासः यस्मिन् समासः संज्ञा आगच्छति अव्ययीभाव अनेन अव्ययी संज्ञा भवति अव्ययं विभक्ति समीप समृद्धि व्यधि अर्थाभाव अत्ययसम्प्रति शब्दप्रादुर्भाव पश्चाद् यथा पूर्य योगपद्य सादृश्य सम्पत्ति साकल्य अन्तवचनेषु अनेन विशिष्ट अव्ययी संज्ञा आगच्छति तदनन्तरं कृत् तद्धितसमासा च अनेन प्रातिपदिकसंज्ञा भवति सुपो धातु प्रातिपदिकयो अनेन सुप्रत्ययस्य लोप भवति इदानीं भवति दण्डन्योग अधि सुप्तिङ्गतं पदम् अनेन पदसंज्ञा आप्नोति प्रत्यय लोके प्रत्ययलक्षणम् अनेन पदसंज्ञा तिष्ठति प्रथमानिर्दिष्टं समास उपसर्जनम् अनेन अव्ययस्य उपसर्जनसंज्ञा भवति तु अधिपदस्य उपसर्जनसंज्ञा आगच्छति उपसर्जनं पूर्वनिपातः भवति तदि भवति अधियोगदण्डिन् इति भवति इदानीम् अन्ते इन् अस्ति अन् नास्ति अतः अनश्च इति सूत्रस्य प्रसक्ति न भवति अधिदण्डिन् अव्ययीभावश्च अनेन सूत्रेण अव्ययम् अव्ययसंज्ञा आप्नोति अव्ययीभावश्च इति सूत्रेण नपुंसकलिङ्गम् इति संज्ञा प्राप्नोति इदानीं सुप्रत्ययस्य उत्पत्ति भवति सो ज्ञाप्रातिपदिकात् अपि सु औजस्नेन द्वाभ्यां सूत्राभ्यां सुप्रपति भवति सो इदानीम् अव्ययात् आप् सुप् अनेन सुप् प्रत्ययस्य लोप भवति अविशिष्ट भवति अधिदण्डन् इति भवति पदम् इति पदस्य न लोपप्रातिपदिकान्तस्य अनेन नकारस्य लोपः भवति सो अधिदण्डि इति समस्तपदं निष्पन्नं भवति सर्वे यथा अधिहरि वयं कृतवन्तः पूर्वम् अधिगोपं तस्य पूर्वं अजन्त समस्तपदानि सर्वासु विभक्तिषु रूपं समानं भवति अधिदण्डि सर्वासु विभक्ति सर्वासु वचनेषु एकमेव पदम् आगच्छति
उत्तमम् उत्तमम् इत्युक्ते अत्र रूपमस्ति समस्तपदस्य रूपमस्ति अधिदण्डि इति रूपमस्ति अत्र यद्यपि पदं नकारान्तपदमस्ति तथापि अत्र अत्र समस्या का इत्युक्ते अनन्तपदं नास्ति दण्डिन् इति इन् अन्तपदम् अन्त्रे इन् अन्ते इन् इति श्रूयते अनन्तपदं नास्ति इति कृत्वा अनश्च इति सूत्रस्य प्रसक्तिः नास्ति. अनश्च सूत्रस्य प्रसक्तिः नास्ति चेत् नस्तद्धिते इति सूत्रस्य प्रसक्तिः अपि नास्ति. किन्तु तत्र कीदृशं कार्यं भवति, समासान्तप्रत्ययस्य विधानं न भवति. तत्र नलोपः प्रातिपदिकान्तस्य इति सूत्रेण अन्त्यस्थितस्य नकारस्य लोपः भूत्वा अधिदण्डि इति रूपं सिद्ध्यति. अत्र अधिहरि इति पदं वयं साधितवन्तः. तत् तादृशरीत्या एव अधिदण्डि इति शब्दस्य रूपाणि सप्तसु विभक्तिषु रूपाणि एकमेव रूपं सिद्ध्यति. अधिदण्डि इति एकमेव रूपं सप्तसु विभक्तिषु सिद्ध्यति तत्र. अपि च अत्र अन्ततो गत्वा एकम् अन्यत् चिन्तनमपि करणीयम्. अधिदण्डि इति पदस्य साधनानन्तरं तत्र ह्रस्वोनपुंसके प्रातिपदिकस्य इत्यस्य प्रसक्तिः तत्र भवति वा इति तस्य चिन्तनं कृतवन्तः. ह्रस्वोनपुंसके प्रातिपदिकस्य सूत्रस्य प्रसक्तिः तत्र अस्ति चेदपि तस्य कार्यं न भवति. केवलं नलोपः प्रातिपदिकान्तस्य इति सूत्रस्य प्रसक्तिः एव भवति. किमर्थं चेत् नलोपः प्रातिपदिकान्तस्य इति सूत्रं परसूत्रमस्ति, अपि च अष्टमाध्याये अस्ति, त्रिपाद्याम् अस्ति, त्रिपादीसूत्रम् अस्ति नलोपः प्रातिपदिकान्तस्य. अपि च ह्रस्वोनपुंसके प्रातिपदिकस्य इति पूर्वसूत्रम् अस्ति. तत्र कीदृशं कार्यं भवति इत्युक्ते, पूर्वत्रासिद्धम् इति सूत्रस्य कार्यं द्विधा भवति. इत्युक्ते तत्र शास्त्रासिद्धम् इति एकं कार्यं भवति, कार्यासिद्धम् इति अन्यत् कार्यं. शास्त्रासिद्धम् इत्युक्ते साधारणतया वयं पूर्वसूत्रं परसूत्रम् एकस्मिन्नेव स्थले सूत्रद्वयम् आयाति चेत् तदा पूर्वोत्रासिद्धम् इति सूत्रेण शास्त्रासिद्धं भवति चेत् तत्र पूर्वसूत्रस्य कार्यं प्रथमतया भवति, तदनन्तरं परसूत्रस्य कार्यं भवति. इत्युक्ते पूर्वसूत्रं बलवत् भवति पूर्वोत्रासिद्धम् इत्यनेन, तदेव तत्र शास्त्रासिद्धं. किन्तु अस्मिन् सन्दर्भे कार्यासिद्धम् इत्यनेन अत्र नलोपः प्रातिपदिकान्तस्य इति सूत्रस्य कार्यं भवति. इत्युक्ते नलोपः प्रातिपदिकान्तस्य इति सूत्रेण अत्र कार्यं कारितम्. कार्यं किम् इत्युक्ते नकारस्य लोपः अभवत्. तदर्थं ह्रस्वोनपुंसके प्रातिपदिकस्य तस्य प्रसक्तिः अस्ति चेदपि प्राप्तिः न भवति. अत्र
नकारस्य लोपः न दृश्यते. तत्
नकारस्य लोपः न दृश्यते इति कृत्वा तत्र तस्य प्रसक्तिः न भवति. पूर्वत्रासिद्धम् इत्यस्य कार्यासिद्धम् इत्यनेन तत्र कार्यं भिन्नरीत्या भवति इति अवगन्तव्यम्. एतावता वयम् उत्तरपदं हलन्तमस्ति चेत्, अनन्तपदमस्ति चेत् कीदृशानि कार्याणि भवन्ति इति वयं दृष्टवन्तः. अग्रिमे सप्ताहे वयं
दृश्यते. किन्तु इदानीं भवान् चर्चितवन्तः खलु, अधिचर्मन् अस्ति चेत् तत्र अधिचर्म अस्ति नकारस्य लोपानन्तरं.
तत्रापि अधिचर्म इत्यस्मिन् प्रसङ्गे तत्र चर्मन् इति नकारान्तपदं नपुंसकलिङ्गपदम् अस्ति. तत्र नलोपः प्रातिपदिकान्तस्य इति सूत्रेण नकारस्य लोपः भवति तत्र. अपि च अग्रिमे सप्ताहे वयं अग्रिमः विषयः किं लिखितम् अत्र इत्युक्ते, पूर्वं वयं दृष्टवन्तः अधिनदी इति पदं दृष्टवन्तः. किन्तु अत्र उपनदं नद्याः समीपम् इति विग्रहवाक्यमस्ति चेत् उपनदम् इति पदं सिद्ध्यति. तत्र नदीपौर्णमास्याग्रहायणीभ्यः इति सूत्रेण विकल्पेन टच् विधीयते. तत्र तस्मिन् सूत्रे नदी इति पदमस्ति इति कृत्वा तत्र नदीपौर्णमास्याग्रहायणीभ्यः इति सूत्रेण विकल्पेन टच् समासान्तप्रत्ययस्य विधानं भवति इति अवगन्तुं शक्नुमः. उपनदम् इत्यस्मिन् पदे अपि अन्ततो गत्वा अदन्तम् अङ्गं सिद्ध्यति, उपनद इति रूपं तत्रापि. तत्र एकं विशिष्टं सूत्रमपि अहं दृष्टवती, यस्येति च इति सूत्रेण तत्र टी भागस्य लोपः भूत्वा तस्मिन् पदे अपि अन्तिमसोपाने अदन्तम् अङ्गं सिद्ध्यति, तेन उपनदम्.
अस्तु, गोयिङ्ग् बेक् टु अधि चर्म, तत्र अन्य किमपि कार्यं न भवति, रैट्? अम् अपि आदेशः न भवति,
उत्तमम्.
इत्युक्ते तत्र चर्म इति पदम् अनन्तपदमेव, किन्तु नपुंसकलिङ्गपदं चर्म, चर्मणि, चर्माणि इति
रूपेण प्रत्यय विकल्पेन आगच्छति खलु. इदानीं तु विकल्परूपं न पश्यामः, भवति अनन्तरम् अम् आदेशः न भवति, यतोहि तत्र तत् सूत्रमपि सपादसपाद्याम् अस्ति, न तु त्रिपाद्याम्.
तत्र कीदृशं चिन्तनं भवेत् इत्युक्ते, चर्म इति पदं नपुंसकलिङ्गपदमस्ति, अपि च अनन्तपदमस्ति इति कृत्वा नपुंसकाद् अन्यतरस्याम्, अन्यतरस्याम् इति कथनेन विकल्परूपम् अस्ति इति अर्थः अस्ति इति कृत्वा नपुंसकाद् अन्यतरस्याम् इति सूत्रेण विकल्पेन समासान्तप्रत्ययः टच् इति समासान्तप्रत्ययस्य विधानं भवति. तत्र टच् विधीयते चेत् पुनः नष्टधीते इत्यस्य कार्यं,
टच् विधीयते तत्र क्लेशः नास्ति, टच् न विधीयते चेत् अधिचर्म एव तिष्ठति खलु.
एकं रूपम् अधिचर्म, अन्यत् रूपम् अधिचर्मम्.
तत् यत्र टच् न आयाति तत्र न अव्ययीभावात् अतः अम् तु पञ्चम अपञ्चम्याः सूत्रं कार्यं न करोति.
आम्, न करोति. इत्युक्ते एतावता समासान्तप्रत्ययस्य विधानेन अदन्त अङ्गं सिद्ध्यति, तदनन्तरम् अम् भावः भवितुमर्हति इति विषयः.
अस्तु, द्वितीयप्रश्नः अस्ति. इदानीं तु वयं अध्यात्मन्, सीमन्, दामन्, दण्डिन् दृष्टवन्तः, किन्तु अत्र विशेष सूत्राणि सन्ति नकारस्य लोपकारणं. किन्तु जगत् अस्ति, जगति अस्ति, तत्र किं भवति? तत्र तत्रापि सकारस्य लोपः भवति वा विशेषसूत्रेण?
अत्र समासान्तप्रत्ययानां विधानं पञ्चभिः सूत्रैः भवति इति वयं दृष्टवन्तः. तत्र अनस्य इति एकं सूत्रमस्ति, अनस्य सूत्रेण समासान्तप्रत्ययविधानं भवति, नपुंसकाद् अन्यतरस्याम् इत्यनेन अपि समासान्तप्रत्ययः टच् विधीयते, किन्तु अन्यानि सूत्राणि सन्ति, अव्ययीभावे सरत् प्रभृतिभ्यः इति सूत्रमस्ति. इत्युक्ते प्रथमतया उत्तरपदं शरदादिगणे अस्ति वा, शरदादिगणीयशब्दः वा उत्तरपदम् इति अपि द्रष्टव्यं. यदा भवत्या उक्तं जगत् इति पदं शरदादिगणे अस्ति चेत् तदा अव्ययीभावे सरत् प्रभृतिभ्यः इति सूत्रेण टच् प्रत्ययः नित्यरूपेण विधीयते इति. भगिनि, अनन्तरम् एकम् अन्यत् सूत्रमस्ति, झयः इति सूत्रमस्ति. झयः सूत्रं किं वदति इत्युक्ते, उत्तरपदस्य अन्तिमवर्णः झै प्रत्याहारस्थवर्णः अस्ति चेत् अपि समासान्तप्रत्ययः विकल्पेन विधीयते. अस्मिन्नेव करपत्रे उपरितने भागे दत्तमस्ति. इत्युक्ते उत्तरपदं झञ्यन्तपदमस्ति वा, शरदादिगणे ये ये शब्दाः सन्ति तेषु अन्यतमं पदम् उत्तरपदम् अस्ति वा इति दृष्ट्वा तत्र कार्याणि प्रवर्तनीयानि.
दृष्टवती तत्र अस्ति. धन्यवादः भगिनि. अस्तु,
एतत् सर्वम् अग्रे आयास्यति इति मम आशयः. इत्युक्ते इतोपि करपत्रे अन्यानि उदाहरणानि अपि भगिनी अत्र स्थापितवती. बहूनि उदाहरणानि परिशीलयामश्चेत् अस्माकम् अवगमनम् इतोपि साधु भवति. अधुना वयं सम्यक् रीत्या चिन्तनं कृतवन्तः. अधुना अत्र स्थगयामः. किन्तु सर्वेषां कृते अवसरः न दातुं शक्तवती अहं. यद्यपि अहं सर्वेषां कृते अपर्चुनिटि दातुम् इष्टवती किन्तु कर्तुं न शक्तवती. क्षम्यताम्. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः.
धन्यवादः भगिनी. बहु धन्यवादः.
धन्यवादः भगिनी.